सर्वेषां स्वागतम्। ॐ शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। अस्तु, अद्यतनविषयः अस्ति गीतासोपानं। तत्र एतत् कृतवन्तः खलु गतवर्गे, इदानीम् अनुवर्तयामः। सो अत्र कुत्र त्वान्तम् अस्ति, कुत्र ल्यबन्तम् अस्ति इति एव परिशीलयामः। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा त्वान्तम्, आसने उपविश्य ल्यबन्तम्। सो अत्र त्वा अस्ति चेत् त्वान्तम्, साधारणतया इक् तव तु अस्ति, इक् गच्छति, तु अपि गच्छति, त्वा एव अवशिष्यते। सो अत्र उपविश्य, सो अत्र केवलं य एव भवति, ल्य ल्यप् इति अस्ति, पकारः गच्छति, लकारः अपि गच्छति, केवलं य एव अस्ति। सो अत्र अहं चिन्तयामि संयस्य इति अस्ति, अहं चिन्तयामि मुद्रणदोषः इति, संयम्य एव सम्यक् इति अहं चिन्तयामि, संयम्य। अस्तु, सर्वाणि कर्माणि ईश्वरे संयम्य अध्यात्मचेतसा जीवनं कुरु। सर्वाणि कर्माणि ईश्वरे संयम्य इत्युक्ते ईश्वरं चिन्तयित्वा कर्म कुरु इति, अध्यात्मचेतसा, अध्यात्मचेतसा जीवनं कुरु। अध्यात्मचेतसा इत्युक्ते संयम्य। Yeah, here it is like giving the control to Ishvara, like that. Sarvani karmani Ishvare sanyamya, like that. Astu. Atmana atmanam sanstabhya kamarupam shatrum jahi. So atra bhya iti asti lyabantam. स्थापयित्वा त्वान्तं, भूत्वा त्वान्तम्, अवेक्ष्य ल्यभन्तम्, आश्रित्य अपि ल्यभन्तम्, बुद्ध्वा त्वान्तम्, आवृत्य ल्यभन्तम्, ल्यभन्तम्, श्रुत्वा त्वान्तम्, मुक्त्वा अपि त्वान्तमेव। सो इदानीं सो अत्र भगवद्गीता पुस्तकं दृष्ट्वा अत्र कथं भवति इति, दुर्योधनः आचार्यम् उपसङ्गम् किं भवति? न सम्य, परन्तु गम् अपि अस्ति खलु, सङ्गम्य एवं भवति। सो अत्र 1-2 इति अस्ति, सूपर् सैट् इति अस्ति खलु, तत्र गत्वा झटिति द्रष्टुं शक्नुमः वयम्। उपसङ्गम्य एवं भवति। गीता सूपर् सैट्, ऐ विल् डु इट्। सो अत्र So I will remove all this one. So here, so we have Srimad Bhagavad Gita asti, Valmiki Ramayanam sarvam asti. So Bhagavad Gita.
धन्यवादः
निश्चयेन. सो अहं कापि कृत्वा अस्माकं
How many things available at the click of a button, Bhagini?
I know. We just have
to... Oh my God, huh? That's why.
We have to have the time, Bhagini. Tavateva.
Right.
Yeah. So, Agrimam Asti, 11:35. Keshavasya Vachanam. Shru. Iti Asti Ata Upa... Kim? Shrutva. Shrutva. 11:35 Iti Asti. इदानीं कुर्मः वा गृहपाठरूपेण कुर्वन्ति वा अस्तु 11:35 झटिति आगच्छति सो अत्र सन्धिकार्यम् अस्ति एतत् श्रुत्वा इति सो अत्र किं भवति एतत् एतत् श्रुत्वा सो अत्र तकारः चकारः भवति षकारः एवम् एवं भवति
विच् सन्धि भगिनि
दिस् इस् अ चुत्व सन्धि चुत्व
धन्यवादः
सो इट् बिकम्स् लैक् दिस् एवं भवति अस्तु एतत् श्रुत्वा सो अहं वैश्वानरो भूत्वा सो अत्र अत्रापि सन्धि भूत्वा पदे सन्धि नास्ति वरः नरः नरो भवति भूत्वा नरो भूत्वा इति भवति अहं वैश्वानरो भूत्वा एवं 15:14 भूत्वा सो अत्र नरः नरो भवति अत्रापि विसर्गसन्धिः सो अत्र विसर्गसन्धिः उकारः भवति अन्य किं रेफा भवति लोपः भवति अन्य सकारः भवति सकारानन्तरं षकार अथवा षकारः एवं भवति अत्र उकारः अस्ति इट्स् वेरि इण्ट्रेस्टिङ्ग् सो अत्र वा नरः अकारः अस्ति अनन्तरं मृदुव्यञ्जनम् अस्ति चेत् उकारः भवति उकार अकारयोगे ओकारः भवति very complex and very interesting
Sandhi
is coming up much later if you want we can have a separate one idanim eva
all sandhi so many sandhis we are talking about
allah
visarga becomes pretty complicated
visarga okay so I will send you a very interesting one okay ek animesha okay so You just inspired me to do something. Eka Nimsha Mahodaya. So this is the Saramsha of the Visarga Sandhi. Oh, actually, I'm not sure I can share this. This is from a different place. I will do my own and share Mahodaya, okay? I don't think I can share this.
Sometimes, whenever it's free. No free per se.
Yeah, this
Suddenly
is like...
the thought came to me. Okay.
Yeah, very good. Yeah, I think it's a good idea. I will reproduce it and I will share it.
Okay. Dhanyavad.
Dhanyavad. So this is a very good Saramshaha. So I will show you 1 minute and then I'll just show you in the screen. Animation. Mm-hmm. Bhagini, I'm going to mute you, okay? Because disturbance bhavati Bhagini. When you want to, you unmute and talk, Bhagini. Astu. अस्तु अत्र पश्यन्तु अत्र पश्यन्तु विसर्गसन्धेः सारांशः एवम् अस्ति विसर्गात् पूर्वम् अकारः अनन्तरम् अकारः अथवा मृदुव्यञ्जनम् अस्ति चेत् उकारः भवति सो दिस् इस् फार् उकारः अनन्तरम् अकारः स्वरः अस्ति चेत् लोपः भवति आकारः इट्स् वेरि काम्प्लेक्स् बट् यु नो इट् वि हाव् इट् डन् लैक् दिस् सो दिस् अ वेरि नैस् प्रोग्राम् काल् एस् टु एस् हव् यु हर्ड् अबौट् इट् सम्भाषणतः संस्कृतपर्यन्तम् इति सो देर् वि आर् टीचिङ्ग् आल् दीस् थिङ्ग् सो ऐ एम् फार्चुनेट् टु बि अ टीचर् ओवर् देर् आल्सो सो ऐ हेव् एक्सेस् टु दिस् कैण्ड् आफ़् material yeah karkasha vyanjanam asti chet evam bhavati swara sandhi vyanjana sandhi visarga sandhi okay so as I encounter I'll show you the I will point out the sandhis astu idanim evam asti aham vaishvanaro bhutva so like akarah asti and then we have भकारः आर् एनी मृदुव्यञ्जनं ऐश्वा नरो भूत्वा इति भवति अस्तु अग्रे 112 भीष्मः सो अत्र ओ न भवति भीष्मो न भवति बिकास् सकारः इस् नाट् अ मृदुव्यञ्जनं सकारः इस् अ कर्कषव्यञ्जनं सो इट् इस् अ हार्ड् आन् द थिङ्ग् ह्य दुर्योधनो आचार्य न भवति दुर्योधनो मेबि दुर्योधनो आचार्यः न जाने ऐ डोण्ट् थिङ्क् इट् हेपेन्ड् नो इट् डसन्ट् हेपेन् देर् दुर्योधनो लैक् अर्जुन उवाच अर्जुनः उवाच इट् बिकम्स् अर्जुनो अर्जुन इट् बिकम्स् लोपः द विसर्गः विल् गो अवे अर्जुन उवाच लैक् दट् अस्तु भीष्मः सिंहनादं वि अपि च नद् किं भवति 112 सिंहनादम् उच्चैः सो इट् इस् बिल्ट् इन् हियर् विनद्य एव्रिबडि सीस् दट् विनद्य अण्ड् देन् उच्चैः विनद्योच्चैः सो विनद्य उच्चैः शङ्खम् अधमत् So you want to do this for homework, the next time we will see. Astuva? No, Chet?
Okay. That's good, Bhagini. We can do it at home.
Yeah, please do it at home so we can just check, okay? We'll remember to check. Astu. Agre kim asti? Tattat sankhyam. So again, we have to look at that. Then we have drishtva and then... So basically they want you to look at the Bhagavad Gita. Nihadya, Budhva, Upavishya, Bhutva, like that. Uttama. Samyak asti. Astu. Agrima adhyayam prati gacchamaha. So atra cha api eva iti yat. Etani padani kani category ka. उदाहरणार्थम् अहं वदामि यु विल् नो वाट् इट् सो क्रियापदं वा अथवा अव्ययानि वा अथवा साक्षात् अव्ययानि So, Atra, this is very good. आत्मैव आत्मनोः बन्धुः. उत्तमं खलु. आत्मा एव, दट् इस् आत्मा मीन्स् वि हाव् दिस् द सोल् आत्मा, तदपि अस्ति. परन्तु आत्मा इत्युक्ते अहं स्वयं, लैक् अहम् अहम् आत्मनोः बन्धुः. सो अत्र विसर्गः आसीत्, दट् बिकेम् लोपः. आत्मनोः सो इट् इस् अ नकारान्तपदम् आत्मन् इति. आत्मन् सो अत्र सपोसिङ्ग् इट् इस् अ तकारान्तपद, इट् दिस् इस् कमिङ्ग् अप् इन् द नेक्स्ट् बुक्. सो बट् इट् इस् यूस्ड् इवन् बिफोर् इट् स्टार्ट्. सो भवतः इति अस्ति चेत् हौ विल् वि से युवर् भवतः, खलु भवतः आं वा भवतः. सो नौ इट् इस् भवतः पुल्लिङ्गपदं भवतः भवतः. सो आत्मन् विल् बि आत्मनः, बिकास् इट् इस् अ नकारान्तपदं. सपोसिङ्ग् इट् इस् मनस्, मनस् इस् अ सकारान्तपदं, दट् विल् बि भवत् मनसः मनसः. सो वाट् एवर् दि एण्डिङ्ग् इस् दट् विल् बि द षष्टि विभक्ति. आल्सो पञ्चमी विभक्ति भवतः आत्मन् आत्मनः मनस् मनसः अण्ड् देन् एनिवे. सो दिस् इस् वाट्. सो नौ इट् इस् आत्मनः आत्मनः बन्धुः. सो आत्मनः अण्ड् देन् बन्धुः इति अस्ति चेत् सो अत्र ब इस् अ मृदु व्यञ्जनम्. What is a mridhi vyanjanam? So we have kha kha ga ga nya and then cha cha ja ja nya. So kha kha are karkasha vyanjanam. It is hard to hear kha kha, like kha kha ga ga cha cha. But the ga ga nga, they are all mridhi vyanjanam. Mridhi vyanjanam. Okay, ekam prathama dvitiya stambe karkasha vyanjanam iti vadamaha. And then ga ga gna, they are all mridu vyanjanam. They are soft to hear, mridu vyanjanam. So ba is a mridu vyanjanam. Mridu vyanjanam asti chet ukaraha bhavati. So we saw that right in that slide. It becomes a mridu vyanjanam. So if it is mridu vyanjanam, the visarga will become ukara and then it will become o, atmano. So that is what we have here, atmano. So there was a visarga, visarga became okaraha, and because of the a before that it became okaraha. Very very complex, but it's very very interesting, very interesting.
So bagini ukara okara bhavati, so is a guna sandhi bhavati.
Yeah, it is a guna sandhi. Yeah, it is a guna sandhi. That is a swara sandhi. So, you know, it's like that.
Praisayatu Bhaginiji chart.
I will rewrite it and send Bhagini. I cannot send this. I will rewrite it. And then if I rewrite it, you know, because here you see S2S is there. So these are all copyrighted.
Okay.
So I cannot send this either, but I will rewrite it. And once I rewrite, it's okay. I can send it. Astu. So atra kuntyaha putraha yudhishthiraha bhimaha arjunaha cha santi. So cha kutra upyogam kurmaha itite avalihi list. Avalihi asti che ante bhavati. Angila bhashayam atra bhavati. कुन्त्याः पुत्रः युधिष्ठिरः भीमः एण्ड् अर्जुन इति भवति. परन्तु तथा नास्ति संस्कृते. अन्ते एव भवति. सत्त्वं रजः तमः च इति त्रयः गुणाः. So atra iti yatra bhavati when we are doing a direct quote. Asmakam bhasha swa bhasha nasti yat anyah uktavan atava likitavan tat tatha eva yatha vayam likamah tasmin samaye iti lekitum shaknumah cha iti. So this iti also comes in the end. Ante eva agachati. Udahanatam dharmam chara kim satyam vada dharmam chara iti. Satyam vada dharmam chara iti veda vakyam asti. Like iti comes in the end. Jagrat svapnaha susuptihi cha iti tisraha avasti. Avastaha santi. Like that. In the end, the iti comes. Bhagavad Gita, Brahma Sutram, Upanishadaha, cha prastanatrayi. So, atra, very interesting, Upanishad is there. So, Upanishadaha is Bahuvachanam, also Panchami Shashti Ekavachanam. Same like Bhagavat, like that. Bhagavat. Okay, anyway. Bhavat etadisha shabdaha. So these are all halanta shabda. All this time we were learning ajanta shabda. Ajanta itikte ach ante asti, ach ante asti. Ach means swaraha, kalo. Ayon, rilra, keyong, ay ouch. So these are all swaraha, ach swaraha. Then we will be learning hal. Hal means vyanjanam. Vyanjanam ante asti. So Upanishad, Bhavat, Manas, Atman, Jagrat. These are all things we'll be learning in the next book. I can't wait. That's why I'm rushing. I'm not even telling stories now. Iti prasthana trayi. Manapamanayoho ratrau mitrecha samaha janaha krishnasya priyaha. So cha. So we have cha also. Sanyasaha karma yogaha cha nishreya sakaram. Sankhyam cha yogam cha iti yaha pashyati saha pashyati. So atra sadhanataya ante eva agachati. Parantu cha madhya madhya agachati. Eta tapi samyakiti atra bodhayati. So they are showing here that it is also okay iti. Parantu sadhanataya eta ante eva samyakasti. Bhumihi apaha analaha vayuhu kam manaha buddhihi ahankaraha cha iti Bhagavatah prakritihi ashtada. So bhumihi janimaha. Apaha itikte
water.
Jala. Water. Analaha
vayu.
Analaha agni. Vayuhu vayuhu. Come.
By default should be Prithvi.
No, Bhumihi is Prithvi. Bhumihi, Apo, Nalo, so Vayu, Kam is Akashaha.
Akashaha.
So when you say Kagaha is something that flies, Kagaha, in the Akashaha. And then we have Manaha Janimaha. Buddhihi janimaha ahankaraha cha iti bhagavataha prakritihi ashtada astu.
Shamitam bhagniya prasthantrayi artham kim prasthantrayi?
Prasthantrayi itikte, prasthanam itikte, we have to start learning kalu tadrisham. What are the three things? So these are the things we should be learning. I forget what this is, but Bhagavad Gita, Brahma Sutram, Upanishad. These three are a must for learning. So we start to learn prasthanam. That is, you know, this is the beginning.
Okay.
Because of these three, like that.
Easily said.
Oh my gosh. Satyam.
Brahma Sutra means something like a PhD material. It is.
Yeah. So much to learn and so little time. Astha.
Could you kindly explain the meaning of the seventh sentence? Sankhyam cha yogam cha ekam yaha pashyati sa saksyati. What does it mean, Bhagini?
Astu. So, Sankhya yoga is a type of thing, Bhagini. I myself don't understand it very clearly. That's why I put a tick. So
is it something like some philosophy like Vedanta, yeah. Shastra, Mimamsa, something like
that? Yeah, exactly. Different type of philosophy.
Bhagini, if I can say.
Yeah, please say.
In chapter 2, Krishna, what he is teaching as Karma Yoga, he is calling it as Sankhya Yoga.
Oh, I see. Okay. Uttama. Karma Yoga, and then what is the other yoga?
Karma Yoga, Jnana Yoga. In chapter 2, he is saying Sankhya Yoga, he is using something similar to Karma Yoga. He is using that as an alternate word. Actually, Sankhya Yoga is something which Kapila taught. That is a completely different thing. Since we are talking about Gita, this must be more reference to chapter 2 of Gita.
Okay. Astha. I don't... Yeah. Astha.
Sankhya Yoga and Karma Yoga. Jnana Yoga and Jnana Yoga, something like that. That's how the word will come there.
I thought...
So, chapter 2 of Gita, period.
Chapter 2, okay. So, Atra, Sankhya Yoga and... I do not know. Sorry, Bhagini, I don't know this.
It's a form of Karma Yoga.
Karma Yoga, and then why do we have it yogam separately?
So yogam generally refers to karma. Sankhya would be sannyasa yoga, which is you can not do anything and then achieve yoga. And you can, the other form is you can do things and then achieve yoga. So the one is karma, one is sannyasa, where you don't do anything.
Okay, Astu.
Yeah, it's a little bit complicated. Sorry. Yeah.
So I do not know.
Santa mini bhagini second adhyay madhye katham vitvam aham sankhe, then it's ranbhumi ma. Ranbhumi asti there, sankhe. So different meaning maybe all the time.
Oh, astu. Dhanyavada. So,
Dhanyavada, Bhagini.
Dhanyavada. Astu. So, agre asti, etat sankhyakeshu gita shlokeshu chakarasya prayogam parishilayat. So, we will just look at one or two. Astu va? One. Kim asti? Atava pratama shloka, prasiddha shloka asti kalu. Dhritarashtra, Satra api Dhritarashtra uvacha. It became Dhritarashtra uvacha. Dharma kshetre, Kuru kshetre, Samavetaha, Atra Samavetaha, Yuyutsavaha. So Atra Visarga Lopasandhihi. Mamakaha, Pandavaha cha. Atra Pandavaha cha eva. Pandavas chaiva. Kima kurvata sanjaya. So, atra api sandhihi abhava. Pandavaha cha eva. So, the visarga became shakara and then we have chakara and then I asti. I became, how did the I become? A plus A will become I. Pandavaha cha eva. So, this is interesting. Pandavaha cha eva. So all these together Pandavas, so the Visarga will become first Sakara and then it will become Shakara. And then we have the Cha. And then the A and the A will become I. Pandavas Chaiva. That's how it will become. So this also, just Parishilayantu, you will see the Shakara, you said. 1814. So we'll just jump to 1814. Because this will take up a long time. Adhishthana tata karta karanam cha. So this is simple. So atrapi vividascha. Vividaha cha vividascha. Tatadisham. Tatadisham asti. Astu. Agre gacha mahava. Amva. उच्चैः पठत रमा पठति नूतनः पठति गिरिः पठति. सो अत्र एकमेव वाक्येन लेखितुं शक्नुमः. कथं? रमा नूतनः गिरिः च पठन्ति. सो अत्र पठन्ति बहुवचनं भवति. अत्र शिशवः बालाः युवकाः युवत्यः ज्येष्ठाः च सन्ति. प्रयागे गङ्गा यमुना सरस्वती च इति तिस्रः नद्यः मिलन्ति. ओके, सो दिस् आर् आल् कोटिङ्ग् एस् इस्. प्रयागे गङ्गा यमुना सरस्वती. गङ्गा यमुना सरस्वती, दिस् आर् आल् लैक् कोट्स्. इति अस्माकं परीक्षा सोमवासरे मंगलवासरे च अस्ति. Why is it only अस्ति?
परीक्षा
एकवचनम्. परीक्षा एकवचनम्. सो इट इस् लैक् दिस्. सो अत्र इफ् यु सी संस्कृतभाषायां कोटेशन् मार्क्स् नास्ति. साधारणतया आङ्ग्लभाषायां कथं वदामः? सः आगच्छति इति. शी सेड् शी विल् कम् लैक् देट् नो. शी सेड् ऐ विल् कम् लैक् देट्. वि डु आल् दिस् मार्क्स् अण्ड् आल् देट्. सो अत्र तादृश नास्ति संस्कृतभाषायां. कमा अपि नास्ति. समटैम्स्
इन्वर्टेड् कमास्, इट् डजन्ट् स्टार्ट् वित् डैरेक्ट् स्पीच् फस्ट् पर्सन्.
डैरेक्ट् स्पीच्. सो तादृशं नास्ति संस्कृतभाषायाम्. इफ् यु सी तादृशं न भवति. विमलायाः विमलेशस्य च कक्ष्या कुत्र अस्ति? बिकास् आफ् कक्ष्या एकवचनम्. इदं जलं राजेशाय कल्पनायै रमायै च यच्छतु. यच्छतु मीन्स् ददातु. इट्स् वेरि इण्ट्रेस्टिङ्ग् टु सी. ददातु विल् बिकम् ददातु अण्ड् यच्छतु. बोत् हाव् द सेम् थिङ्ग्. ददातु, वन् बिलाङ्ग्स् टु वन् गण, अनदर् वन् बिलाङ्ग्स् टु अनदर् गण. वै ऐ डोण्ट् नो. दस् जस्ट् हौ इट् इस्. च इति अव्ययस्य प्रयोगस्य समुच्चयः. समुच्चय मीन्स् कलेक्षन्. समुच्चयः इत्यर्थे भवति. उदाहरणम् आम्रं सेवफलं च मातापिता बालाः च गच्छन्ति इति. अपि
when it comes to quotation, wherever iti comes in or wherever the uvacho comes in, iti, the quote is understood, right?
Understood.
Because
uvacha also means quote only. Uvacha means he said. Everything is quote, correct.
Uvacha is quote and iti is also quote.
Iti is also quote, correct. So when they say ast atra nasti, but anyway, yeah, you get the idea, correct. Astu, api is very interesting. So atra uchaihi patata, kevalam balaha na yuvakaha api dhavishyanti. सो अत्र अपि यत्र आगच्छति ततः पूर्वं यत् अस्ति तस्य मुख्यत्वं भवति. मुख्यत्वं दद्मः. महाभारते केवलं केवलं कथाः न तत्त्वचिन्तनम् अपि अस्ति. कौरवेषु दुष्टाः एव न सज्जनाः अपि अस्ति. सो दिस् इस् अ वेरि गुड् यूसेज् आफ् अपि. केवलम् एव. सो वेन् यु डू द नाट् ओन्लि इति अर्थे केवलं बालाः न युवकाः अपि धाविष्यन्ति. सो अत्र भारते कथाः एव न कथाः एव न तत्त्वचिन्तनमपि भवति. इफ् यु यूस् केवलं ह्य कौरवेषु केवलं दुष्टाः न. सो केवलं विल् कम् ह्य. केवलं दुष्टाः न सज्जनाः अपि आसन्. कृष्णः अर्जुनस्य सारथिः अस्ति. बट् हियर् यु केन् से परन्तु मित्रमपि. हौ विल् यु पुट् केवलम् आर् एव इन् दिस् सेण्टेन्स्? केवलम् अर्जुनस्य सारथिः न अस्ति अस्ति विल् गोवे अस्ति विल् गोवे. केवलम् अर्जुनस्य सारथिः न मित्रमपि. लैक् दट् अर्जुनः भगिनि
मित्रमपि अस्ति
मित्रमपि अस्ति. अर्जुनः केवलं वामहस्तेन न दक्षिणहस्तेन अपि. सो ऐ थिङ्क् दे मिस् दि अपि शरं प्रयुङ्क्ते. प्रयुङ्क्ते मीन्स् यूसिङ्ग् इट् प्रयोजनं करोति इति. प्रयुङ्क्ते. बट् हियर् यु केन् आल्सो पुट् परन्तु आल्सो. अर्जुनः केवलं वामहस्तेन न परन्तु दक्षिणहस्तेन अपि शरं प्रयुङ्क्ते. योगी स्वत्र केवलम् आल्सो वि केन् एड्. योगी कर्म कुर्वन्नपि न लिप्यते. सो वाट् इस् द मीनिङ्ग् आफ् दिस् लिप्यते इत्युक्ते न लिप्यते नाट् अटाच्ड्. योगी कर्म कुर्वन् अपि. सो अपि हेस् अ डिफ्रेण्ट् मीनिङ्ग् हियर्. इट्स् नाट् आल्सो. अपि अस्ति चेत् आल्सो अपि भवति. अन्य मीनिङ्ग् अस्ति अत्र. योगी कुर्वन्नपि दो करेक्ट्. सो वी केन् रैट् इट् यूसिङ्ग् यद्यपि तदापि. यद्यपि योगी कर्म करोति तथापि न लिप्यते. योगी यद्यपि योगी कर्म करोति तथापि. सो अत्र आल् दो इति अस्ते भवति. कुर्वन्नपि. सो यु हाव् टु से इट् टुगेदर्. कुर्वन्नपि एवं भवति. सः गुरुणा अपि दुःखेन न विचाल्यते. विचाल्यते अर्थः कः?
Doesn't get affected.
Or, yeah, he doesn't waver iti artha. Samya. Guruna api na vichalyate. That means even by the guru. So even iti artha. Even. Also, or something like even in a negative way, opposite way. साङ्ख्यैः यत् प्राप्यते योगौ अपि तत् गम्यते. योगैः सम्ये क्षम्यतां योगैः अपि तत् गम्यते इत्युक्ते किम्? फिलोसाफिकल् थिङ्ग् खलु. साङ्ख्यैः यत् यत् प्राप्यते, साङ्ख्ययोगैः यत्. सो अत्र अपि वै डु दे हेव् साङ्ख्य अण्ड् yoga together, some, you know, we have to understand this. Anga janami
sankhya. In the previous sentence, saha guruna api dukhena na vichalyate, this guru is it the preceptor or he's meaning huge, big, laghu guru?
Oh, ama, laghu guru, correct, correct, Bhagini. So the guru has two different meanings, kalu guru.
He doesn't get wavered by even huge sorrows or miseries.
Yeah, something huge like or like heavy.
Yeah.
Heavy also is guru. One is acharya. One is acharya, one is like, so
big master.
Yeah, big dukkham. Guruna api dukkhena na vichalyate. I think that is the correct one. Guruna doesn't get wavered, doesn't get affected. Any other thoughts?
I felt so, Bhagini.
Bhagini, correct. What to Bhagini?
Bhagini, can we use cha api for the sentence Krishna ha Arjunasya sarathi asti mitram cha api or Arjunasya
mitram cha. So sarathi mitram cha is like he is this and that, like that, you know, he is the sarathi and he is a charioteer and friend. Paramtu here we are saying not only.
Okay, with so, a different meaning.
Yeah. different meaning. Not only is he an ordinary sarathi, but is also a mitra. So in that kind of sense it is here.
Okay, thank you, Bhagini.
Bhagini, for the last sentence, I was just thinking whether it means what we derive from Sankhya, we derive from yoga also. We get from yoga also.
Okay. I really don't know, so whatever you say, I will check. No, so this is something, we can do research on Bhagini, because, you know, I would like to know this one, for sure. Sankhyaihi yat prapyate, yogaihi api tat gamyate, it goes away like that, I don't know.
There is a sloka in second chapter. I'm not able to recollect the sloka per se. I'm just thinking about it. It is suddenly, this doesn't come. If you read the sloka, then the Sankhya word gets clarified clearly.
Okay, so
it's chapter 5.
Chapter 5. So we can do here, okay? So Sankhya.
Sankhya yogena, something like that. That's what the word will come.
Sankhya yogena. Okay, so I'll just go this. Sankhya yoga. This one? 5-4? Should we try 5-4? Sankhya yoga upadak balaha. Not this one. You're saying fifth one, right? Sankhya yoga. Does any of this make sense? Okay, anyway, sorry about that. I'll definitely find out about this. Okay, I have a friend.
It's five, chapter 5, shloka 5, fifth shloka 5-5.
Okay,
I should know this. I'm taking the exam, but I can't remember.
So we have a Gita expert among us, Uttamam Bhagini. What exam are you taking, Bhagini?
I go to Gita Parivar, and I'm taking the level 3 exam next month, and I'm studying all this.
Uttamam Bhagini. Good luck to you.
Thank you, Bhagini.
Yet Sankhyai, so Uttamam. Yet Sankhyai hi prapyate sthanam. Okay, so we will look at the commentaries, right? Tadyo yogaihi, so atra repa bhavati. Tat yogaihi rapi gamyate. Is it taken? Translation by Swami. Which one should we look? Shankaracharya.
Bhagini, go for 3-3. Well, then, that's what I was referring to. Go for 3-3.
Okay. Okay, so I
yogena sankhyanam karma yogena yoginam. That's what will come. 3-3. Yeah. Okay.
Karma yogena yoginam.
Second line.
Jnana yogena sankhyanam karma yogena yoginam.
Sankhyanam means what it says is that one who is in pursuit of knowledge.
Okay, asti.
That is the Chidbhavananda meaning which I am having with me.
Oh.
Sankhyanam means tattva vicharam seihira varkali. That is one who is in pursuit of knowledge.
Oh. So the Sankhya is one who is in pursuit of? Pursuit of knowledge. Jnana Yogi is also pursuit of knowledge.
No. One who is in pursuit of knowledge, for them it is Jnana Yoga. One who is in preparation for Yoginaha, it is Karma Yoga.
Oh, for Yoginaha is just Karma Yoga. Oh, I see. For us, it is Karma Yoga.
Yes.
We are not
one who is in pursuit of knowledge, then it goes to Jnana Yoga. That's what the second line meaning is.
Yeah, Jnana Yoga. What about Sankhya? This is what I do not know.
Sankhya means basically Sankhya Nam, which is basically Sashti Bhagavajam. People who are in pursuit of knowledge.
Oh, like Mumukshu. Okay, Astu. Okay. All right.
Mumukshu, okay. We can call it.
Mumukshu, yeah. Mumukshu who is in pursuit of moksham.
Yeah, pursuit of knowledge, because knowledge is the way to moksha.
Astu. Eteshu vakyeshu api iti avyayam avalokayata shrutva api brahma kaschit na janati. Shrutva api
here it means
even though, not also. Shrutva api, like that. Swadharmam api va avekshya na vikampitum arhasi. Swadharmam api va avekshya na vikampitum arhati. Svalpam api asya dharmasya mahataha bhayat trayate. Indriyani yatataha purushasya api manaha harati. Manaha harati. Na kaschit kshanamapi karma vina tishtati. Bhakta. So all this meaning, even though, like that. Even, like, so this is not also, but it's like even. Even arte asti. Bhaktaha karma bihi muchyante shraddhavantaha anusuyantaha api muchyante. So all these will have the same type of meaning. Muchyante means free karma. Bhaktaha karma bihi muchyante. Shraddhavantaha anusuyantaha api muchyante. avagachanti kalu bhaktah karma bihi muchyante bhaktah when they do karma they become free they get moksha by doing karma shraddhavantah anasuyantah api muchyante shraddhavantah anasuy asuya means to feel jealousy anasuya not feeling jealous of others shraddhavantah they become free muchyante jnani api atra jnani api sva prakriti anusaram cheshtate jnani api स्वभावम् अनुसारं चेष्टते कार्यं करोति इति अनिच्छन्नपि मनुष्यः कथं पापं चरति अनिच्छन् ईवन् इफ् दे डोण्ट् वाण्ट् टु डु ईवन् सो अत्र अपि सर्वत्र ईवन् इति भवति कथं पापं चरति हौ डु दे अस्तु चातुर्यवर्णस्य कर्ता अकर्ता अपि ईश्वरः अस्ति चातुर्वर्ण लैक् अवगच्छन्ति खलु चातुर्वर्णः आं वा अस्तु आवश्यकं वा अर्थः आवश्यकं चेत् पृच्छन्तु नो चेत् अग्रे गच्छामः पूर्वैः मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतम् So this is a karmani prayoga. So here it means even they while knowing they do the work iti karyam kritam panditaah api karya akarya vishaye bramanti even panditaah api कार्य अकार्य विषये भ्रमन्ति कर्म अकर्म विकर्म अपि ज्ञातव्यम् हियर् इट् इस् आल्सो स्ट्रैट् फार्वर्ड् आल्सो कर्म अकर्म विकर्म अपि ज्ञातव्यम् सो कर्म मीन्स् डूयिङ्ग् द करेक्ट् एक्ट् akarma not doing any act vikarma doing the wrong act karma akarma vikarma api nyatavyam we have to know everything astu nissang if you want any explanation vadantu no chet agre gachamah nissangah karyam kurvan api karma bandham na prapnoti so atra even iti arthe bhavati even here it is also like that but here it is even
shamyatam bhagini
bhagini pratama bhagini vart bhagini
in sentence number 12 bhagini can we it means also can we also use cha instead of api this karma karma vikarma cha gyatavyam
and nyatavya yeah a cha is like a straightforward sentence
okay
api is even like that no karma akarma vikarma api nyatavyam
okay
here it means like you know as stressing on the also like why do we have to know vikarma like that you know it's not like a straightforward bring me idli vada and dosa no it doesn't mean that
so greater emphasis on
emphasis on the thing astu mahadeya
on 13 what I'm saying is nisanga karyam kurvan chet karma bandhanam na prapnodi then only the meaning section no? if you do the work without attachment nisanga hai karma bandhanam na prapnoti is api comes in with the meaning of chet here
correct nissangah karyam कुर्वन् अपि कर्मबन्धं कर्मबन्धनं न प्राप्नोति. आम्.
If you put chet in place of abhi, the sentence will fit in perfectly.
Nissangaha karyam kurvan, so atra karoti chet karma bandhanam na prapnoti.
So abhi can be used in place of chet also.
Not always.
Okay, in this case, that's how it looks at least. Okay, doesn't matter. Let's move.
Yeah. Karyam kurvan api. Yeah, correct. So if you have it as sangaha. Sangaha karyam kurvan api karma bandhanam na prapnoti. This won't make sense. Correct? अस्तु या अत्यन्तं पापी अपि ज्ञानेन मोक्षं प्राप्नोति. दिस् ऐ डोण्ट् अग्री.
नो बट् देयर् लॉट ऑफ स्टोरीज़ इन भागवतम व्हिच सेज़ दिस्.
बट् हौ महोदय, ऐ एम डूइंग अ लॉट ऑफ बैड थिंग्स एंड देन ऐ गेट द ज्ञानम एंड देन ऐ या मोक्षं. So
in Bhagavatam, there is a story called Ajamilan story, which will tell you exactly the same thing.
I know. I know that, but I know.
Okay. It happened.
Yeah, it happened.
Let's put it that way. Rather than happened, it happened.
Happened, yeah. Actually, moksham iti vadamaha chet, not just swargam. Okay, so freedom is our own mind.
Moksham is different from
freedom from rebirth, Bhagini.
No, actually, I feel we get a relief right now.
Moksham is freedom from rebirth.
That is the actual, no. Moksham means two different moksham. Moksham is no more birth. Okay, that is the freedom that they talk about, the physical freedom like that. Now we won't have any birth. But I personally believe, it is my personal thing, moksha means relief right now. Right now we have moksha. That is, you know, when we repent, we get relief. That's what this is. Atyantam papi api jnanena moksham prapna. This I
Our sastras never talk about moksham after you die. People who attained mukti, they say it is a jivan mukti. When you are there, things are already released. That is what they call it, moksham anyway.
Moksham
is not something which you get it after you die.
Yeah, exactly. This is what. Yeah, exactly. This is what I believe. I don't believe
people
once.
Talks about it in many places. It's open everything. Moksha is nothing to do with death.
Correct. Moksham, we are talking about that the karma, the plus karma and the negative karma will be the same.
Let's put it in a simple
word, it is jivan
mukti. What is jivan mukti? That's what you mean by relief.
Yeah, jivan mukti. So we get mental peace. Let me put it that way. We get mental peace. That is what moksham is. Right?
Okay, what is the shloka that...
I don't agree. So we'll end the serious discussion.
Yeah, okay. So, yoga yuktaha jitendriyaha karyam kurvanapi na nashyati. Yoga yuktaha jitendriyaha karyam kurvanapi na nashyati. Astu. Right? Yoga... Okay, so jitendriyaha who have controlled their senses, even when they do karma, api na nashyati, yoga yuktaha. Sarvani karyani api ishvara arpana rupena karaniyani. Astu. We offer everything to ishvara. Chauryam tejaha dhritihi yuddhe. So atra kama asti. Generally tata na bhavati alpa viramah idanim asti. शौर्यं तेजः धृतिः युद्धे अल्प अल्पानयमपि क्षात्रस्वभावलायनमपि अपलायनम् अपि युद्धे अपलायनम् अपि क्षत्रियस्वभावः सो इट् बिकेम् क्षात्रस्वभावः क्षत्रियस्वभावः एवम् अस्ति क्षत्रिय इति अस्ति खलु क्षत्रियाणां स्वभावः एवम् अस्ति शौर्यं तेजः धृतिः युद्धे अपलायनम् अपलायनम् एवम् एवम् अस्ति अस्तु यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति सम्यक् अहं न करोमि इति सः वदति शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा अपि शारीरं तपः भवति सो अत्र स्ट्रेट् फार्वर्ड् अपि आल्सो अपि कृत्वा अपि सो अत्र ईवन् दो इति भवति कृत्वा अपि ईवन् दो दे डू इट् इति अर्थे अर्थे भवति कृत्वा अपि यातयामं गतरसं भूति पर्युषितम् उच्छिष्टम् अमेध्यम् अपि भोजनं तामसप्रियं भवति उच्छिष्टम् अमेध्यम् अपि भोजनम् सो यातयामम् इत्युक्ते किं यातयामम् यातयामम् इत्युक्ते ऐ थिङ्क् लेफ्ट् ओवर् इति यातयामं गतरसं आल्सो वेन् इट् हस् बिकम् ओल्ड् इट् लूसेस् इट्स् फ्रेश्नेस् गतरसं रसं रसं गतम् पूर्ति अहं न जानामि पर्युषितम् उषितं पर्युषितं सेम् थिङ्ग् लेफ्ट् ओवर् परि उषितम् उच्छिष्टितं मीन्स् ईटिङ्ग् इट् अगेन् लैक् उच्छिष्टितम् अमेध्यम् अपि भोजनं तामसप्रियं भवति तामसगुणः विच् वन् स्टिङ्किङ्ग् ओ स्टिङ्किङ्ग् अस्तु Uchishtitam means like when you eat the same food again, like Uchishtitam means, how do I say it, when we eat it and then we have some leftover, same thing. Yachcha, I don't know how to say it. Tadasham tamasa priyam bhavati, astu. मनुष्येषु सात्विकी राजसी तामसी अपि प्रकृतिः भवति सो हियर् इट् इस् जस्ट् लैक् लैक् च इति च तामसी अपि प्रकृतिः भवति अज्ञानिनः एतं मम अस्ति तत् अपि मम भविष्यति इति चिन्तयन्ति अज्ञानिनः दिस् इस् मैन् दट् इस् आल्सो मैन् दट् इस् आल्सो विल् बि मैन् मम भविष्यति तदपि मम भविष्यति इति चिन्तयति सो दिस् इस् इति तत् अपि दिस् इस् आल्सो इति स्ट्रेट् फार्वर्ड् आल्सो इति अवधेयम् अपि इति अव्ययस्य प्रयोगः सप्तभिः विभक्तिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः अस्तु अस्तु सो इट् केन् बि यूस्ड् आन् आल् टैप्स् आफ् विभक्ति इति उदाहरणं पश्यामः वा रामः सीता लक्ष्मणः अपि गच्छन्ति अस्तु सो इन् द्वितीया विभक्ति अपि भवति एवं सप्तसु विभक्तिषु भवन्ति अस्तु एव सर्वोपनिषदो गावः उपनिषदः गावः सो अत्र सन्धिः अस्ति सर्वोपनिषदो गावो दुग्धगोपालनन्दनः पार्थो वस्त्रसुधिर्भोक्ता दुग्धं गीतामृतं महत् अस्तु सो अत्र किं वदति अत्र श्लोकः उपनिषदः एव गावः उपनिषदो उपनिषदः गावः उपनिषदः गावः इव अस्ति सो उपनिषदः एव गावः श्रीकृष्णः एव दोग्धा दोग्धा अस्ति गोपालनन्दनः दोग्धा इस् गोपालनन्दः नन्दनः सो ही इस् एक्स्ट्राक्टिङ्ग् द सारांशः फ्रम् द गावः विच् इस् आक्चुलि उपनिषदः उपनिषदः इस् द गावः ततः दोग्धा गोपालनन्दनः कृष्णः एव गोपालनन्दनः एव दोग्धा पार्थः एव वत्स पार्थः एव वत्स बुद्धिमन्तः एव भोक्तारः सुधी भोक्ता सुधी बुद्धिमन्तः एव भोक्तारः दुग्धं दुग्धम् अस्ति गीतामृतं महत् उत्तमं वेरि वेरि नैस् श्लोकः खलु सर्वो वेरि नैस् श्लोकः
पार्थः एव वत्स मीन्स् ही इण्डिकेट्स् द काफ्
काफ् काफ्
अर्जुन इस् द काफ् लैक्
अर्जुन इस् द काफ् अर्जुन इस् द काफ् दट् इस् पार्थ अस्तु अवधेयम् एव इति अव्ययस्य प्रयोगः निश्चयः इत्यर्थे क्रियते एतत् अन्यस्य निवारणं करोति एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः सो अत्र सो संथिङ्ग् ऐ वाण्ट् टु से अबौट् अपि अग्रे आगच्छति वा इति पश्यामि नास्ति सो अत्र अपि इति यत्र भवति लुकिङ्ग् फार् अ स्पेस् सो अत्र रामः गच्छति सीता अपि गच्छति सो दिस् इस् अ स्ट्रेट् फार्वर्ड् थिङ्ग् सीता अपि गच्छति सो वेन् ऐ से सीता गच्छति सीता अपि गच्छति रामः खादति रामः पिबति अपि पिबति अपि सो 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 विच् अव वर्ड् the api comes after so we have stress on that ramah kadati pibati api also pibati iti sita also but here it means he drinks also pibati api like that so that is what the api is similarly eva api tata eva bhavati यतोदाहरणं वाक्यानि पुनः लिखत भगवान् अधुना गृहं गमिष्यति भवान् अधुना गृहं गमिष्यति भवान् कार्यालयं न गमिष्यति भवान् अधुना गृहम् एव गमिष्यति कार्यालयं न सो अत्र एव इति उपयोगं कुर्मः चेत् सो अत्र अन्यस्य निवारणं करोति अन्यस्य निवारणम् इट् रिमूव्स् दि अदर् वन् कार्यालयं न भवान् कार्यालयं न गमिष्यति भवान् अधुना गृहं गमिष्यति कार्यालयं न गमिष्यति भवान् अधुना गृहम् एव गमिष्यति सो अत्र अपि न भवति वयं सर्वे भोजनं करिष्यामः वयं मधुरं न खादिष्यामः इदानीं वयं पश्यामः वा एकमेकं कुर्मः अस्तु श्रीनिवासमहोदय
आं भगिनि वयं सर्वे भोजनं करिष्यामः वयं मधुरं न खादिष्यामः वयं सर्वे भोजनम् एव करिष्यामः मधुरं न खादिष्यामः
मधुरं न एव पर्याप्तं मधुरं न अस्तु धन्यवादः चम्पा भगिनी
आं भगिनि सः विद्यालयं गच्छति सः अन्यत्र न गच्छति सः विद्यालयम् एव गच्छति सः अन्यत्र न गच्छति
अन्यत्र न अन्यत्र न इति पर्याप्तं सो देसे यतोदाहरणं कार्यालयं न सः विद्यालयमेव गच्छति अन्यत्र न सो ऐ वाण्ट् टु मेक् अ करेक्षन् सो अत्र कर्म अकर्म विकर्म इति अस्ति विकर्म मीन्स् नाट् राङ्ग् एक्षन् बट् फ्रीडम् फ्रम् एक्षन् दुष्कर्म ऐ जस्ट् रिमेम्बर् दट् राङ्ग् एक्षन् इस् दुष्कर्म सो दिस् इस् फ्रीडम् फ्रम् एक्षन् क्लारिफै दट् अम्ब वक्तुमिच्छति वा
पुस्तकालये पुस्तकानि सन्ति पुस्तकालये उत्तरपुस्तकानि न सन्ति पुस्तकालये पुस्तकानि सन्ति एव
पुस्तकानि एव सन्ति
पुस्तकालये पुस्तकानि एव सन्ति पुस्तकालये
अत्र एतत् सर्वं मास्तु काः गच्छन्ति वयं खादिष्यामः एतत् सर्वं मास्तु केवलं सो अत्र पश्यन्तु भवान् गमिष्यति इति नास्ति कार्यालयं न पुस्तकानि
पुस्तकानि
न पुनः वदतु पुस्तकालये
पुस्तकालये पुस्तकानि एव सन्ति उत्तरपुस्तकानि न
उत्तरपुस्तकानि न अस्तु धन्यवादः जयश्री भगिनि
सौचिकः वस्त्रं सीव्यति सौचिकः वस्त्रं न वयति सौचिकः वस्त्रं एव सीव्यति सौचिकः वस्त्रं सीव्यति एव न वयति
न वयति अस्तु सो अत्र सीव्यति एव सो द एव कम्स् हियर् न वयति सो लैक् रामः फलं खादति रामः फलं खादति रामः हौ वाट् इस् दि अदर् सेण्टेन्स् वी केन् सो टु शो दि एव फर् एव
फलम् एव खादति पयोहिमं न
फलम् इस् सेम् फलं न
फलरसं न पिबति रामः
फलं न ददाति
कृष्णः फलं न खादति
नो इस् सेम् पर्सन् रामः फलं खादति एव न ददाति दट् इस् ओन्ली ईटिङ्ग् डजन्ट् डू एनिथिङ्ग् एल्स् इति सौचिकः वस्त्रं सीव्यति एव न वयति हि डजन्ट् मेक् स्टिचस् हलो आं वा
आं भगिनि
सो अन्य वदामि रामः एकनिमेषम् सो वि विल् डू अ काण्ट्रास्ट् अस्तु रामः खादति रामः पिबति सो अत्र अत्र किं भवति रामः खादति पिबति च रामः खादति पिबति अपि हियर् सो रामः खादति पिबति च एण्ड् साधारण साधारणवाक्यं रामः खादति पिबति अपि इट्स् लैक् ए लिटल् बिट् आफ् ए सर्प्रैस् एलिमेण्ट् ओ पिबति अपि ओ एवं वा लैक् देट् आं वा संथिङ्ग् ए डिफ्रेण्ट् मीनिङ्ग् खलु एम्फसिस् आन् संथिङ्ग् इस् गोयिङ्ग् संथिङ्ग् डिफ्रेण्ट् इस् गोयिङ्ग् आन् रामः खादति पिबति अपि ओके एण्ड् देन् वाट् रामः खादति एव सो इफ् ऐ से खादति एव वाट् एम् ऐ सेयिङ्ग् न पिबति इति अर्थम् सो इफ् ऐ से रामः खादति एव न पिबति दट्स् वाट् दिस् इस् सौचिकः वस्त्रं सीव्यति एव न वयति न पिबति अवगतम् सो where you put the eva the cha the api it makes a difference so atra if I say something else ramah no I wrote different here ramah kadati api what how can we like even though how can we express that ramah khadati api
padati
bubukshitah asti something like that he is still hungry bubukshitah asti रामः खादति अपि बुभुक्षितः अपि अस्ति सो हियर् वाट् एम् ऐ सेयिङ्ग्
ईवन्
दो हियर् इट् मीन्स् ईवन् दो
भगिनि यद्यपि खादति तथापि
सो अत्र इट् बिकम्स् यद्यपि तथापि जस्ट् लैक् श्रीनिवास महोदय सेड् यदि लैक् द यद्यपि खादति तथापि बुभुक्षितः अस्ति सो इफ् ए पुट्ति अपि इट् शोस् ति यद्यपि तथापि अर्थं रामः यद्यपि खादति तथापि बुभुक्षितः अस्ति उत्तमम् अस्तु अग्रे गच्छामः वा जयश्री भगिनि सिंहः गर्जति शुकः न
सम्यक्
लता भगिनि
आं भगिनि सिंहः गर्जति शुकः न गर्जति सिंह एव गर्जति शुकः न
सम्यक् सो अत्र एव कम्स् हियर् सिंहः एव गर्जति शुकः न गर्जति सो इफ् ए पुट् एव हियर् हौ केन् वि चेञ्ज् द सेण्टेन्स् शुकः सिंहः गर्जति एव
न रोदति
न रोदिति न रोदिति ओके सो इफ् ऐ पुट् एव आफ्टर् दिस् ऐ हाव् टु चेञ्ज् द क्रियापदं चेञ्जस् सीव्यति ऐ पुट् एव द क्रियापदं चेञ्जस् टु वयति सो इफ् ऐ से सिंह एव गर्जति शुकः सो द नामपदं चेञ्जस् the kriya padam stays the same sauchikah eva vastram sivate how can I change this sentence
ah
कौचिकः एव वस्त्रं सीव्यति
चालकः न
चालकः न सो वेरेवर् यु पुट् दि एव दि अदर् वन् हेस् टु चेञ्ज् सिंहः ए सो अत्र दे हेव् गिवन् शुकः न गर्जति दट् मीन्स् सिंहः एव गर्जति अवगतं वा नो चेत् पुनः वदामि
वेरि नैस् भगिनी थेङ्क् यु
निश्चयेन भगिनि नो दीस् सेण्टेन्सेस् आर् रियलि गुड् भगिनि अहं न अस्तु सन्ध्या भगिनि अग्रे
वृक्षः फलति काष्ठं न फलति वृक्षः एव फलति काष्ठं
न काष्ठं न सम्यक् वृक्षः एव फलति काष्ठं न सम्यक् अस्तु अग्रे सविता भगिनि
आं भगिनि सज्जनः उपकारं करोति मूर्खः न करोति सज्जनः एव उपकारं करोति मूर्खः न
मूर्खः न सम्यक् अस्तु पुनः श्रीनिवास महोदय
हंसः तरति मूषकः न तरति हंसः एव तरति मूषकः न
सम्यक् सम्यक् धन्यवादः चम्पा भगिनि
आं भगिनि मयूरः नृत्यति शुनकः न नृत्यति मयूरः एवं नृत्यति शुकः न
शुनकः न मयूरः एव नृत्यति शुनकः न अस्तु अम्ब नदी वहति
नदी वहति सागरः न वहति नदी एव वहति सागरः न
सागरः न सम्यक् स्व एव इति अवगतवन्तः वयम् अस्तु एतानि वाक्यानि उच्चैः पठत अस्तु गीतातः अस्ति अतः कष्टम् अनुभवामि अस्तु अस्माकम् अधिकारः कर्मणि एव अस्ति इत्युक्ते किं कर्मणि एव अस्ति कुत्र नास्ति अस्माकम् अधिकारः फले नास्ति कर्मणि इति सप्तमी विभक्ति कर्मन् कर्मणि फले नास्ति सम्यक् जनकादयः कार्येण एव सिद्धं प्राप्तवन्तः कार्येण एव सिद्धिं कार्येण एव सिद्धिं प्राप्तवन्तः जनकादयः अस्तु अन्येन न सिद्धिं प्राप्तवान् अन्येन सिद्धिं न प्राप्तवन्तः इति अर्थे ओन्लि बै वर्क् अन्येन न लैक् बै अदर्स् न बै अदर् वर्क् नाट् न बै अदर् मीन्स् न अन्येन न I didn't mean anya janaka, no. By other means, no. Anyena, no. Because karyena asti, so anyena, no. Asti. Loka sangraham eva vichintya karyam karaniyam. Loka sangraham eva vichintya karyam karaniyam. Phalam vichintya, no. Atava swartham vichintya, no. सम्यक् वा स्वार्थं विचिन्त्य न सेल्फिश् रीसन्स् न सर्वदा कार्यम् एव करणीयम् विकार्यं न अस्तु सम्यक् ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यम् ब्रह्म कर्म समाधिना ब्रह्म एव गन्तव्यम् ऐ डोण्ट् नो हौ टु फिक्स् दिस् ब्रह्म एव गन्तव्यम् इत्युक्ते अन्य विपरीत अर्थः कः न जानामि ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यम् अन्य कुत्रापि न
अन्य दे वोंट गो एनीवेयर एल्स राइट
या वी कैनॉट गो एनीवेयर एल्स किम किम
दे वोंट गो एनीवेयर एल्स
हां अन्य कुत्रापि न गंतव्यम समथिंग लाइक दैट
because brahma eva comes after brahma so that is what it needs to be changed
yeah exactly so brahma is like a dvitiya vibhakti here brahma eva gantavyam no prathama vibhakti sorry brahma eva gantavyam astu jnanena eva papa nashah bhavati jnanena eva पापनाशः भवति
अज्ञानेव न
अज्ञानेन न अज्ञानेन न अस्तु ईश्वरम् एव शरणं गच्छ शरणं गच्छ इत्युक्ते इट्स् लैक् अ टर्म् लैक् अन्यं अन्यं शरणं मा गच्छ अन्यं शरणं मा गच्छ श्रद्धावान् एव ज्ञानं सो दिस् शरणं गच्छ इस् लैक् एन् एक्स्प्रेशन् लैक् टेक् रेफ्यूज् इति अर्थे सो अत्र शरणं स्वीकरोतु इति अर्थे परन्तु शरणं गच्छ लैक् बुद्धं शरणं गच्छामि एवं भवति खलु सो सो इट् इस् लैक् एन् एक्स्प्रेशन् तत् So it means take sharanagati in Ishwarah, like that. That's what the meaning is. Shraddhavan eva jnanam prapnoti. Shraddhavan labate jnanam, like that, right? Shraddhavan eva jnanam prapnoti. Yaha shraddha na karoti, saha jnanam na prapnoti. Anyaha na. केवलम् अन्यः न अन्यः न दुष्टाः अश्रद्धावान् न प्राप्नोति दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिमेव यान्ति यान्ति इत्युक्ते गच्छन्ति अधोगतिं गच्छन्ति सि अधोगतिं सो इट् इस् लैक् अ द्वितीयाविव अधोगतिं गच्छन्ति दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिम् एव गच्छन्ति
साधुनः
साधुजनाः ईश्वरं ज्ञात्वा सद्गतिं यान्ति अधोगतिं सद्गतिम् अथवा सुगतिं यान्ति ईश्वरे एव मनः योजयसि तर्हि सुखं भवति The opposite is kim?
अन्येन
राक्षसेव
मनः
अन्ये
अन्ये
अन्ये सेफ् अस्ति भगिनि
अन्ये एव अन्ये सो अत्र ईश्वरे सप्तमी सो अन्ये इति भवति अस्तु सो अग्रिमवर्गे इति आरम्भं कुर्मः सम्यक् अस्ति तत् अग्रे किमस्ति यत् एव अस्तु अग्रिमवर्गे इतितः आरम्भं कुर्मः सो अत्र अस्तु इदानीं समापयामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनि
धन्यवादः
धन्यवादः भगिनी
धन्यवादः पुनर्मिलामः